सर्वेषाम् अद्यतनसम्भाषणसंस्कृतकक्षायां पुनः एकवारं स्वागतम्. आरम्भे अहम् एकं श्लोकं वच्मि. यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः, यत्रैतास्तु न पूज्यन्ते सर्वास्तत्र फलाः क्रियाः. इत्युक्ते यत्र नार्यः पूज्यन्ते तत्र देवताः रमन्ते, यत्र ताः न पूज्यन्ते तत्र सर्वाः क्रियाः अफलाः. इत्युक्ते यत्र महिलाः आदरणीयाः भवन्ति तत्र देवताः आनन्दं प्राप्नुवन्ति, किन्तु तस्य विपरीतरीत्या यत्र वनितानां सम्माननं न भवति तत्र सर्वाणि कार्याणि व्यर्थाः अथवा विफलाः भवन्ति. इत्युक्ते यस्मिन् कस्मिन्नपि समाजे स्त्रियः आदरं न प्राप्नुवन्ति तस्मिन् समाजे देवताः न तिष्ठन्ति. इत्युक्ते समाजे महिलानां सहकारः अपि आवश्यकम्. किन्तु अहं किमर्थम् इमं श्लोकं पठितवती अद्य इत्युक्ते अद्यतन अस्माकं नूतनविषयः अस्ति यत्र तत्र. अस्मिन् श्लोके यत्र तत्र इति पदद्वयं योजितमस्ति, तदर्थम् अहं पठितवती. अपि च भवन्तः सर्वे श्रुतवन्तः एव अन्यः श्लोकः, यत्र योगेश्वरः कृष्णः यत्र पार्थो धनुर्धरः तत्र श्रीविजयोर्भूतिः ध्रुवानेतिर्मतिर्मम इति भगवद्गीतायां सञ्जयः वदति. तदा एव अत्र अन्यः श्लोकः अपि अस्ति, भवन्तः सर्वे ज्ञातवन्तः एव, यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिं बाष्पवारि परिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् इति श्लोकः अपि अस्ति. अत्र इतोपि गते सप्ताहे एव अहं नूतनं श्लोकमपि पठितवती. तत् किम् इत्युक्ते यत्र रामकथागानं तत्रास्ते हनुमान् यथा, संस्कृताध्ययनं यत्र तत्र संस्कृतिदर्शनं. यत्र संस्कृताध्ययनं भवति तत्र संस्कृतेः दर्शनं प्राप्तुं शक्नुमः. इति इत्युक्ते एतेषु श्लोकेषु यत्र तत्र इति पदं योजितमस्ति, किन्तु यत्र इति पदम् अस्ति तस्य रूपं किम् इति किञ्चित् चिन्तनं कुर्मः चेत् अत्र यद् इति दकारान्तपदम्, अपि च तत्र त्रल् इति प्रत्ययः अस्ति. तत्र त्रल् प्रत्ययः लकारः इति संज्ञकवर्णः भूत्वा अपगच्छति, त्र एव तिष्ठति तत्र. तादृशरीत्या यत्र इति पदम् आगतम्. अपि च यदि वयं न्यायशास्त्रे अपि एकं प्रसिद्धं वाक्यमस्ति, यत्र 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 धूमः तत्र तत्र वह्निः इति वाक्यं बहु प्रसिद्धं वाक्यमस्ति. इत्युक्ते अनुमानप्रमाणम् इति वदामः, अनुमान तत्र न्यायशास्त्रे प्रमाणानि सन्ति, इत्युक्ते प्रत्यक्षप्रमाणम्, अनुमानप्रमाणं, शाब्दप्रमाणं, तादृशरीत्या प्रमाणानि सन्ति. अत्र अनुमानप्रमाणेन किं तत्र निर्धारितुं शक्नुमः इत्युक्ते यः पदार्थः परोक्षः अस्ति अथवा अदृष्टः अस्ति, सूक्ष्मः अस्ति, तस्मिन् तदा तस्य पदार्थस्य ज्ञानम् अनुमानप्रमाणेन विधीयते. तदर्थमेव तत्र यत्र यत्र धूमः तत्र तत्र वह्निः इति वाक्यं बहु प्रसिद्धं वाक्यम्. अपि च अत्र गते सप्ताहे वयं तत्र गृहपाठः आसीत्, किन्तु तत्र किमपि काठिन्यं नास्ति इति भाति. तत्र सम्भाषणं सरलमेव, आदर्शरूपेण एकं सम्भाषणं पूर्वमेव लिखितमस्ति. सम्भाषणं दृष्ट्वा अत्र पाञ्चालिका इति पदस्य स्थाने लेखनी इति पदं स्थापयित्वा पुनः सम्भाषणं लेखनीयं. तत्र किमपि काठिन्यं नास्ति. कोऽपि वदति वा अत्र वाक्यानि? अत्र का वदति? भूमा भगिनी, भवती श्रावयतु वाक्यानि.
आं भगिनि, मम माता यादृशरीत्या गृहकार्यं करोति तादृशरीत्या अहं गृहकार्यं कर्तुं न शक्नोमि. भवान् कीदृशग्रन्थं पठितुमिच्छति? तस्य सखी यादृशी शाटिका धारयति तादृशी मम पुत्री अपि मम पुत्री अपि तादृशी शाटिकां क्रेतुमिच्छति. तावदेव भगिनि.
अस्तु, सर्वे श्रावयितुमिच्छन्ति वा? नो चेत् अग्रे गच्छामः वा? अभ्यासपुस्तके इतोपि किम् उक्तमस्ति तस्मिन् विषये चिन्तनं कुर्मः इति मम चिन्तनं. भवन्तः सर्वे उत्तमरीत्या लिखितवन्तः इति मम चिन्तनमस्ति अधुना. अतः अद्य बहु किमपि कार्यमस्ति, अतः प्रथमते अभ्यासपुस्तके इतोपि किमस्ति इति एकवारं पश्येम. अत्र सर्वे अभ्यासपुस्तकं पश्यन्तु. अत्र अपेक्षया इति नूतनं पदमस्ति, पदं परिशील्य तदनन्तरं षट्षष्टितमे पुटे अत्र अपेक्षया इति दत्तमस्ति पदम्. अत्र गीताञ्जलि भगिनी भवती पठतु अत्र.
आं भगिनि, अपेक्षया आवरणे विद्यमानस्य पदस्य साहाय्येन वाक्यानि लिखतु. उदाहरणम्
अत्र भगिनि, अत्र एकवारं पश्यतु, अत्र एकं नूतनं पदमस्ति विद्यमानस्य इति पदमस्ति. तस्य रूपं किम्?
षष्टि एकवचन भगिनि.
उत्तमम्. इतोपि वक्तुं शक्नोति वा?
आं भगिनि,
वदतु.
विद्यमानस्य इत्युक्ते विद्या सह विद्या येन विद्यया इत्युक्ते
आं भगिनि, अत्र अत्र स्थगयतु. अत्र
विद्यते
अत्र उषा भगिनी वदतु.
विद् धातु अस्ति भगिनि, विद्यते आत्मनेपदी शानच् प्रत्यय अस्ति भगिनि.
उत्तमम्. इत्युक्ते शानच् इत्युक्ते परस्मैपदीनां कृते शत्र प्रत्ययान्तरूपम्, आत्मनेपदीनां कृते शाणजन्तरूपम्. अतः अत्र धातुः विद् धातुः अपि च रूपं लट्लकाररूपं विद्यते. विद्यते इति शब्दस्य शाणजन्तरूपं विद्यमान, अपि च यथा गीताञ्जलि भगिनी उक्तवती षष्ट्यन्तं रूपम्. उत्तमम्. अग्रे पठतु भगिनि.
पदस्य अपि च षष्टिविभक्ति एकवचन, साहाय्येन तृतीय एकवचन, वाक्यानि
अत्र प्रथमान्तं रूपं किम्?
पदम्
अत्र साहाय्येन तत्र
साहाय्येन साहाय्यं
सुन्दरं सुन्दरम् उत्तमं साहाय्यं उत्तमं
नपुंसकलिङ्ग् वाक्यं वाक्यानि इति च द्वितीयविभक्ति बहुवचन लिखतु लोट् लकार प्रथमपुरुष एकवचन
उत्तमरीत्या उक्तवती अग्रिमं वाक्यं करोतु
उदाहरण विजयस्य अपेक्षया विनयः उन्नतः विजयः विजयः पदस्य विजयस्य रूपं योजयित्वा वाक्यम् उदाहरणं दत्तम्
इत्युक्ते अत्र इत्युक्ते अस्माभिः अत्र किम् अवगन्तव्यम् इत्युक्ते अत्र आवरणे एकं पदम् अस्ति
अत्र अवगन्तव्यम् अपेक्षया अपेक्षया षष्टि षष्टि विभक्ति धारयति प्रयोगं करोति
इत्युक्ते अत्र अत्र किं कुर्मः इत्युक्ते विजयविनययोः मध्ये तुलनां कुर्मः तुलना तुलना इत्युक्ते कम्पेरिजन् विनयविजययोः मध्ये तुलनां कुर्मः कस्य अपेक्षया कः उन्नतः अपेक्षया वदतु कस्य अपेक्षया कः उन्नतः
विजयस्य अपेक्षया विनयः उन्नतः इत्युक्ते विनयः अधिकम् उन्नतः
चिन्तयतु विजयस्य अपेक्षया विजयस्य अपेक्षया विनयः उन्नतः अत्र विनयः उन्नतः कस्य अपेक्षया विजयस्य अपेक्षया
विजयस्य इत्युक्ते विजयः विनयः मध्ये विनयः अधिकम् उन्नतः
विनयः उन्नतः भिन्नरीत्या वदामश्चेत् भिन्नरीत्या वदामश्चेत् कथं वक्तव्यम् इत्युक्ते अत्र अत्र वाक्यं विजयस्य अपेक्षया विनयः उन्नतः इति लिखितमस्ति किन्तु विनयस्य अपेक्षया विजयः वामनः
वामनः
इत्युक्ते विपरीतरीत्या अथवा भिन्नरीत्या वदामश्चेत् अत्र पूर्वस्मिन् पुटे वयं विरुद्धार्थकशब्दान् पठितवन्तः अत्र उन्नतः इति पदस्य विरुद्धार्थकशब्दः वामनः तदर्थं विनयस्य अपेक्षया विजयः वामनः तत् तादृशरीत्या वाक्यद्वयं निर्मातुं शक्नुमः करोतु प्रथमं वाक्यं करोतु
मधुसूदनः समीरः चतुरः मधुसूदनस्य अपेक्षया समीरः चतुरः इत्युक्ते समीरः समीरः चतुरः इति अपेक्षया मधुसूदनः तादृशचतुरः नास्ति
तस्य समीरस्य तत्र समीरः चतुरः मधुसूदनस्य अपेक्षया चतुरः इत्युक्ते अत्र समीरस्य अपेक्षया मधुसूदनः किं वदामः
चतुरः नास्ति
चतुरः
तत्र मन्दः अस्ति वा भगिनि
मूढः अस्ति
मूढः मन्दः किमपि
अचतुरः
चतुरः नास्ति इति उत्तमम् अत्र पश्यन्तु चतुरः इति पदम् अत्र चतुरः इत्युक्ते चतुरः इत्युक्ते आङ्ग्लभाषायां कः अर्थः तस्य
Yeah, intelligent.
Active.
Clever.
Clever.
क्लेवर् आक्टिव्. किन्तु चत्वारः इति पदस्य द्वितीयविभक्ति बहुवचनरूपमपि चतुरः तत् तथा किमर्थम् अस्ति इति चिन्तनीयम् अस्माभिः. इत्युक्ते यः बहूनि कार्याणि कर्तुं शक्नोति चेत् सः चतुरः भवति वा, तादृश अर्थः अस्ति वा किमपि. अस्तु, अत्र पश्यन्तु चतुरः, अत्र किञ्चित् चिन्तनं कुर्मः. चतुरः, चतुरस्य भावः वदतु शोभा भगिनी.
चातुर्यं.
चातुर्यं. निपुणस्य भावः
नैपुण्यम्.
कुशलस्य भावः
कौशल्यं.
कौशलं. प्रवीणस्य भावः
प्रावीण्यम्.
अपि च अत्र विदुषस्य भावः
विद्वांसं.
वदतु भगिनि. वैदुष्यम् उत्तमम्. पटुः इत्युक्ते समर्थः इति अर्थः. पटोः भावः पाटवम्. पाटवम्
इत्युक्ते पटुत्वम् अपि अस्ति वा? अहं श्रुतवान् कुत्र तथा न जानामि.
आं महोदय, पटुत्वमपि अस्ति. पटोः भावः पाटवम्. अपि च लघोः भावः लाघवम्. लाघवं. तथा एव समर्थस्य भावः सामर्थ्यम्. एतानि सर्वाणि अपि तद्धितप्रत्ययान्तरूपाणि. यद्यपि वयं तेषाम् उपयोगं एतानि सर्वाणि अपि पर्यायवाचकपदानि इव तेषाम् उपयोगं कुर्मः, किन्तु तत्र ईषत् अर्थभेदः तु अस्ति एव. तत्र किञ्चित् अर्थभेदः तु अस्ति, परन्तु साधारणतया वयं पर्यायवाचकपदानि इव तेषाम् उपयोगं कुर्मः. उत्तमं भगिनी, धन्यवादः. गीताञ्जलि भगिनी,
मूढभावशब्द
मौढ्यम् इति भवति. तत्र कुत्रचित् वृद्धिः भवति. साधारणतया तद्धितप्रत्ययान्तरूपेषु आदिमवर्णस्य वृद्धिः, आदिवृद्धिः भवति. तादृशरीत्या रूपाणि सम्भवति. उत्तमं भगिनि.
भगिनि एकम् अधिक मन्दः धन्यवादः.
अनन्तरम् अत्र अन्ये के सन्ति? अत्र सूर्यकुमारी भगिनी, भवती पठतु अग्रिमं वाक्यम्.
भगिनि, रामायणं बहुत् काव्यं. रघुवंशः. रघुवंशस्य अपेक्षया रामायणं बहुत् काव्यम्.
उत्तमम्. उत्तमम्. अत्र रघुवंशः इति दत्तमस्ति. रघुवंशः इति किं? तत् किं पदं किम्?
रघुवंशः एकवचनं प्रथमविभक्तिः.
उत्तमं. किन्तु कोऽपि वदतु अत्र रघुवंशः इत्युक्ते किम्?
काव्यम् अस्ति. कालिदासरचितः.
तदेव अहं श्रोतुमिच्छामि. इत्युक्ते अत्र रघुवंशः इति काव्यं कालिदासेन विरचितं काव्यं, किन्तु लघुकाव्यं. कस्य अपेक्षया लघुकाव्यं? रामायणस्य क्षम्यतां, रघुवंशस्य अपेक्षया रामायणं बृहत् काव्यं. भिन्नरीत्या वदामश्चेत् कथं वदामः? रामायणस्य अपेक्षया वदतु भगिनि.
रामकुमारी भगिनि, रामायणस्य अपेक्षया रघुवंशः लघुकाव्यं.
लघुकाव्यं किमर्थं? रामायणकाव्ये कति श्लोकाः सन्ति कोऽपि वदतु.
24,000.
संस्कृतभाषायां वदतु भगिनि.
चतुर्विंशतिसहस्रं
एतानि पदानि सर्वदा नपुंसकलिङ्गे एव भवन्ति. चतुर्विंशतिसहस्रं श्लोकाः सन्ति. इत्युक्ते रघुवंशकाव्ये न्यूनाः श्लोकाः सन्ति, किन्तु रामायणे बहवः श्लोकाः सन्ति इति कृत्वा तत् काव्यं बृहत् काव्यं, रघुवंशस्य अपेक्षया बृहत् काव्यं. किन्तु महाभारतस्य अपेक्षया वद
किमपि बृहत् नास्ति.
किमपि शोभा भगिनि, रामायण वंशसुधा भगिनी भवती वदतु. रामायणस्य अपेक्षया महाभारतं, नमस्ते, रामायणस्य अपेक्षया महाभारतं
लघुकाव्यम् बृहत् कार्यं. महाभारतस्य अपेक्षया रामायणं लघुकाव्यं.
भिन्नरीत्या वदतु.
रामायणम् अपेक्षया महाभारतं बृहत् काव्यम्. रामायणस्य अपेक्षया महाभारतं बृहत् काव्यम्.
उत्तमम्, तावदेव. अग्रिमं वाक्यं भवती एव करोतु.
ओ अस्तु. मम गृहं, मम गृहस्य अपेक्षया भवतः गृहं विशालम्. गृहं अस्तु. भवतः ओ तत्र षष्टिविभक्ति एव अस्ति न भगिनि? भवतः इत्युक्ते षष्टिविभक्ति एव अस्ति. भवतः गृहस्य अपेक्षया मम गृहं ह्रस्वः अथवा लघु अस्ति.
तत्र कथं वक्तव्यं? विशालम् इति पदस्य विरुद्धार्थकपदं चिनोतु.
किम् अस्ति भगिनि
अत्र? अत्र अहं चिन्तयामि.
सङ्कीर्णम् आम् आम्.
अथवा सङ्कुचितम् इति अपि अस्ति.
आम्
किन्तु अत्र गृहं विशालम् इति गृहस्य विशेषणम् अस्ति इति कृत्वा नपुंसकलिङ्गे एव वक्तव्यं वाक्यम्.
अस्तु, सङ्कुचितम् इति नपुंसकलिङ्गे एव अस्ति न भगिनि?
अस्ति. इदानीं पूर्णतया वाक्यं वदतु.
आं भगिनि, भवतः गृहस्य अपेक्षया मम गृहं सङ्कुचितम्.
सङ्कीर्णं महोदयः उक्तवान् इत्युक्ते. उत्तमम्, अग्रिमं करोतु.
बेङ्गलूरुनगरस्य अपेक्षया मैसूरुनगरं सुन्दरम्.
मैसूरुनगरस्य अपेक्षया बेङ्गलूरुनगरम्
असुन्दरम्. सुन्दरस्य विरुद्धातकभावः अस्ति. कुरूपी अथवा किमस्ति भगिनि?
अत्र अस्माकं कृते कानिचन अत्र मलिनं, अत्र कानिचन पदानि वयं योजयितुं शक्नुमः. कथम् इत्युक्ते मैसूरुनगरस्य अपेक्षया बेङ्गलूरुनगरं तावत् सुन्दरं नास्ति इति एकविधम्. तावत् सुन्दरं नास्ति अथवा विरूपम् अथवा कुरूपम् इत्यपि योजयितुं शक्नुमः. उत्तमं भगिनि, धन्यवादः. अनन्तरं शोभा भगिनी भवती करोतु.
भगिनि एकः प्रश्नः, संकीर्णं संकुचितं भेदः कः भगिनि?
तत्र सूक्ष्मभेदः तु अस्ति भगिनि. तत्र पदं कथं निष्पन्नं भवति, अत्र धातुः कः, तेन आधारेण तस्य अर्थः कः इति वक्तुं शक्नुमः. भेदः तु अस्ति एव, किन्तु साधारणतया यथा अहं पूर्वमेव उक्तवती, नैपुण्यं, सामर्थ्यं, लाघवम् एतानि पदानि पर्यायवाचकपदानि इव सन्ति, किन्तु ईषत् अर्थभेदः तु अस्ति एव. अत्र पदं तत्र एटिमालजि पश्यामश्चेत् पदं कथं निष्पन्नं भवति, तेन आधारेण वयं तत्र सम्यक् अर्थः कः इति वयं वक्तुं शक्नुमः. उत्तमम्. अनन्तरम् अत्र पञ्चमं वाक्यं करोतु भगिनि, शोभा भगिनि.
लेखनस्य अपेक्षया भाषणं सुलभं, भाषणस्य अपेक्षया लेखनं कठिनं, क्लिष्टम्.
उत्तमम् उत्तमं, तथा एव पठनं श्रवणं वदतु.
पठनस्य अपेक्षया श्रवणं सुलभं, श्रवणस्य अपेक्षया पठनं कठिनं.
कठिनम्. उत्तमं. कठिनस्य भावः एव
काठिन्यं.
काठिन्यम्. उत्तमम् उत्तमम्. अपि च वयं साधारणतया शृणुमः श्रवणं, मननं, निधिध्यासनं. तत्र तेषु किं कठिनं, किं सुकरं, किम् आवश्यकं, किं लाभदायकम्? एकं वाक्यं वदतु.
एकं वाक्यं
किमपि. श्रवणं, मननं, निधिध्यासनं, तत्र त्रीणि कार्याणि सन्ति.
श्रवणं सुलभम् अस्ति, मननं श्रवणस्य अपेक्षया किञ्चित् कठिनं, मननस्य अपेक्षया निधिध्यासं बहु कठिनम् अस्ति. एकस्य अपेक्षया सोपानेन काठिन्यं वर्धते.
काठिन्यं वर्धते. वाह, सुन्दररीत्या उक्तवती भगिनी.
वदामि भगिनि.
अस्तु अस्तु. अनन्तरं षष्ठं वाक्यं,
तत्र अपर्णा कृषा अस्ति. उमा, उमायाः अपेक्षया अपर्णा कृषा, अपर्णायाः अपेक्षया उमा स्थूला.
स्थूला. उत्तमम् उत्तमं, धन्यवादः भगिनि. अनन्तरम् अत्र अन्ये के के सन्ति? अत्र नळिनी भगिनी, भवती कानिचन वाक्येन वदति वा अत्र अपेक्षया इति पदं योजयित्वा? नळिनी भगिनी अस्ति वा? अस्तु. अधुना अत्र रघुपत्याचार्यमहोदय, भवान् वदति वा अत्र मातृभाषायाः अपेक्षया?
मातृभाषायाः अपेक्षया संस्कृतभाषा किञ्चित् कठिनमस्ति.
आङ्ग्लभाषायाः अपेक्षया संस्कृतभाषा,
आङ्ग्लभाषा अपेक्षया संस्कृतभाषा कठिनमपि अस्ति, सुलभमेव अस्ति.
इत्युक्ते मधुरं, मधुरा भाषा.
मधुरं, मधुरम् अस्ति, मधुरम् अस्ति, मधुरं, मधुरा भाषा, मधुरा अस्ति. अपेक्षया संस्कृतभाषा मधुरा अस्ति.
उत्तमम्. आङ्ग्लभाषायाः अपेक्षया संस्कृतभाषा मधुरा.
धार्मिका अस्ति भगिनि?
धार्मिका अत्र उत्तमम्. किञ्चित् ध्वनिः अस्ति अत्र. अधुना इदानीं पर्यन्तं वयम् अपेक्षया इति पदस्य विषये किञ्चित् वयम् अधीतवन्तः. अत्र अहं चिन्तयामि अत्र अपेक्षया इति पदं तृतीयाविभक्त्यन्तं पदम्. अत्र अप इति उपसर्गः अस्ति, ईक्ष् धातुः अस्ति, अपि च तत्र एकः प्रत्ययः अपि अस्ति. अपेक्षा इति स्त्रीलिङ्गपदं, किन्तु अत्र अपेक्षया इति तृतीयान्तं रूपम् अस्ति. अत्र कस्य अपेक्षया कः इति तत्र तुलनां कुर्मः. अत्र अपि च षष्टिविभक्तेः उपयोगः भवति एतस्य पदस्य तस्मात् पूर्वम्. अपेक्षया इति पदात् पूर्वं षष्टिविभक्तेः उपयोगं कुर्मः. कथं? कस्य अपेक्षया कः उन्नतः, कस्य अपेक्षया का कः सुन्दरः, तादृशरीत्या. कस्याः अपेक्षया का स्थूला, तादृशरीत्या. उत्तमम्. अनन्तरम् अत्र यत्र तत्र इति पदयुगलमस्ति. अधुना तस्मिन् विषये इतोपि किञ्चित् चिन्तनं कुर्मः. अत्र अभ्यासपुस्तके किं दत्तमस्ति? अनुराधा भगिनी, भवती पठति वा? अत्र अभ्यासपुस्तकं पार्श्वे अस्ति वा? अनुराधा भगिनी भगिनी न श्रूयते.
अस्ति भगिनि,
पुस्तकमस्ति वा भवत्याः पार्श्वे? न न, अधुना वयम् अभ्यासपुस्तकं पठामः. अतः अभ्यासपुस्तके तत्र षट्षष्टितमं पुटं पश्यतु. अत्र यत्र तत्र इति पदद्वयम् अस्ति, तत्र रक्तवर्णैः लिखितैः पदानि सन्ति. पठतु, प्रथमतया सूचनां पठतु.
I have not got that, ma'am. I mean, I don't have it handy.
अस्तु, चिन्ता मास्तु, शृणोतु. वंशीसुधा भगिनी, भवती पठतु.
अहं पठामि.
वंशीसुधा भगिनी पठतु. अत्र पुस्तके किम् अस्ति?
यत्र तत्र एतेषां पदानां साहाय्येन अन्यानि वाक्यानि लिखतु, यथा शर्करा पिपीलिकाः. यत्र शर्करा तत्र पिपीलिकाः भवन्ति. दीपः प्रकाशः. यत्र दीपः तत्र प्रकाशः भवति. अस्तु भगिनि, तावदेव. अग्रिमं वाक्यमपि पठामि वा भगिनि?
अग्रिमं वाक्यमपि पठतु.
क्रीडा बालकाः. यत्र क्रीडा तत्र बालकाः भवन्ति, क्रीडन्ति. तत्रापि समीचीनमेव. विदूषकः विनोदः. यत्र विदूषकः तत्र विनोदः प्रचलति. अस्ति.
इत्युक्ते अत्र विदूषकः इत्युक्ते कः?
आङ्ग्लभाषा वदामि.
कॉमेडियन्. कॉमेडियन्.
कॉमेडियन् अथवा किं वदामः आङ्ग्ल
एण्टर्टैनर्.
क्लौन्
क्लौन् उत्तमम्. अत्र यत्र विदूषकः, अत्र पूर्णतया वाक्यं, तत्रापि क्रियापदं योजयित्वा वदतु. यत्र शर्करा अस्ति तत्र पिपीलिकाः आगच्छन्ति. भिन्नरीत्या वाक्यं वदतु, किञ्चित् भिन्नरीत्या भिन्नानि पदानि योजयित्वा वदतु.
आं भगिनि, यत्र शर्करा अस्ति तत्र पिपीलिका आगच्छन्ति. यत्र दीपः ज्वलति तत्र प्रकाशः प्रकाशः भवति यत्र क्रीडा क्रीडन् यत्र क्रीडा क्रीडति क्रीडन्ते यत्र क्रीडा क्रीडन्ते तत्र बालकाः क्रीडितुम् इच्छन्ति
यत्र क्रीडा वर्तते तत्र
बालकाः क्रीडितुम् इच्छन्ते
क्रीडितुमिच्छन्ति अस्तु अग्रिमं वाक्यं
विदूषकः विनोदः यत्र विदूषकः यत्र विदूषकः वर्तते तत्र विनोदः विनोदः दृश्यते
दृश्यते अथवा जायते
जायते आम् आं भगिनि अग्रिमं वाक्यमपि पठामि वा भगिनि यत्र आपणः यत्र आपणानि सन्ति तत्र ग्राहकाः भवन्ति
अत्र आपणः इति पुंलिङ्गपदं
पुंलिङ्गपदम् आपणाः भवन्ति तत्र ग्राहकाः सन्ति भवन्ति भवन्ति इति वदामि भगिनि
उत्तमम् अत्र आपणः इति तु वयं जानीमः अत्र ग्राहकः ग्राहकः इति पदमस्ति अत्र ग्राहकः कीदृशं रूपं वदतु
ग्रहणम् इति पदस्य रूपं भवति
अत्र प्रत्ययः कः
ओ अस्तु नुल् नुल् प्रत्ययः नुल् प्रत्ययः
नुवल् प्रत्ययः धातुः धातुः कः
धातुः अहं चिन्तयामि ग्रह इति धातु
ग्रहधातुः लट्लकाररूपं किं
गृह्णाति
उत्तमम् उत्तमम् इत्युक्ते अत्र ग्राहकः इत्युक्ते आङ्ग्लभाषायां कस्टमर् इति वदामः किन्तु संस्कृतभाषायां वक्तुमिच्छामश्चेत् क्रेता तृजन्तरूपं तृच् प्रत्ययान्तरूपम् अस्ति क्रेता यः क्रेतुमिच्छति सः क्रेता बय्यर् अपि च विक्रेता विक्रेता इत्युक्ते यः विक्रयणं करोति
करोति
इत्युक्ते क्रेता वदतु
पदस्य अन्ते कः इति अस्ति चेत् नुल् प्रत्ययः अस्ति वा सामान्यतया
अक अक अस्ति चेत्
अक अकः अक
अत्र वंशिष्ठ भगिनी वदतु अत्र युवोरनाकौ
नुल् प्रत्यये भगिनी यत् व्याकरणकक्षां गतवती न भगिनी तत्र नकारः चुटु इति सूत्रेण अपगच्छति लकारः हलन्त्यं सूत्रेण अपगच्छति ऊ इति अवशिष्यते युवोरनाकौ इति सूत्रेण ऊ स्थाने अकः इति आदेशः भवति अतः ग्रह योगः नुल् अनन्तरं ग्रह्योगः ऊ ग्रह्योगः ऊ इति स्थाने अकः इति आदेशः भवति अनन्तरं ग्रहयोगः अक तत्र आकारं भवति ग्राहकः भवति भगिनी कथं भवति भगिनी अहं
अत्र पठ् पठ् पाठकः भवति तत्र इत्युक्ते अत्र अत उपधायाः अत उपधायाः इति सूत्रेण
दीर्घाकारः भवति
इत्युक्ते अत्र उत्तमम् इत्युक्ते तत्र किमस्ति इति एकवारं पुनः वदामि यद्यपि अत्र न आवश्यकम् अहं जानामि किन्तु किञ्चित् वदामि अत्र प्रत्ययः अस्ति णुवल् णुवल् प्रत्ययः यथा भगिनी उक्तवती लकारः अपगच्छति णकारः चुटु इत्यनेन अपगच्छति ऊ एव तिष्ठति अत्र ग्रातुः धातुः ग्रहधातुः ग्रहयोगः अत्र ऊ वकारः उकारः ऊ इति एव तिष्ठति तत्र तस्मिन् सन्दर्भे युवोरणाकौ इति सूत्रेण तत्र ऊ स्थाने अक आदेशः भवति ल्युडन्तपदं स्वीकुर्मः चेत् तत्र यु ल्युट् इत्यस्मिन् तकारः लकारः अपगच्छतः तत्र यु एव तिष्ठति, यु स्थाने अन इति आदेशः भवति. अत्र नुवल् प्रत्ययस्य विषये अक आदेशः भवति, किन्तु रूपं पुंलिङ्गमस्ति चेत् अकः इति शृणुमः. ग्राहकः, पाठकः, लेखकः, तादृशरूपाणि पुंलिङ्गे भवन्ति, किन्तु तत्र अक एव आदेशः भवति. नुवल् प्रत्ययस्य विषये अनेन सूत्रेण अत्र अक आदेशः लुडन्तपदानां यदा निर्मामः तदा यु अवशिष्यते, यु स्थाने अन आदेशः भवति तदर्थमेव. किन्तु ल्युडन्तरूपाणि नपुंसकपदानि सर्वदा, सर्वाणि ल्युडन्तरूपाणि नपुंसकरू लिङ्गपदानि एव, तदर्थमेव पठनं, लेखनं तादृशरूपाणि सम्भवन्ति. किन्तु अत्र ग्राहकः इति पदं नुल् प्रत्ययः अस्ति, अक इति श्रूयते.
अत्र अध्यापिका ग्राहिका अस्ति चेत् किं भवति भगिनि?
तत्र भिन्नः प्रत्ययः भगिनि,
भिन्नप्रत्ययः. तदेव मम प्रश्नः आसीत्. धन्यवादः भगिनि.
अस्तु. अपि च अत्र इतोपि यत्र तत्र इत्यस्मिन् विषये अत्र सूर्यकुमारी भगिनी भवती वदति वा, यत्र संस्कृतभाषा वर्तते तत्र पूरयतु, वाक्यं पूरयतु.
हा भगिनि, यत्र धनुर्ध
यत्र संस्कृतभाषा वर्तते
तत्र संस्कृतं वर्धते, संस्कृति वर्धते.
अत्र उत्तमरीत्या पूरयतु कोऽपि, यत्र संस्कृतभाषा वर्तते तत्र
संस्कृति वर्धते.
सांस्कृतिमस्ति वा?
इत्युक्ते यदि वयम् उत्तमरीत्या तस्य वाक्यस्य पूरणं कर्तुम् इच्छामश्चेत् कथं वक्तव्यं, यत्र संस्कृतभाषा वर्तते तत्र उत्तमसंस्कृतिः अपि च संस्कारः दृश्यते. संस्कारः दृश्यते. उत्तमम्. अनन्तरम् अत्र रघुपतिचार्य महोदय, भवान् करोति वा अग्रिमं अत्र कानिचन वाक्यानि सन्ति?
द्वितीयम् ओके, द्वितीयं वाक्यं पठित्वा तत्सम्बद्धं प्रथमवाक्यं लिखतु. अस्तु, यत्र भवान् गच्छति तत्र
अत्र तत्सम्बद्धम् इति दत्तमस्ति, तत्र रूपं किं तस्मिन् विषये वदतु.
तत्सम्बद्धं पठित्वा तत्सम्बद्धं वाक्यम् अस्ति. अस्तु, सम्बद्धं वाक्यं विशेषणविशेष बहु अस्ति वा सम्बद्धम्?
सम्बद्धादि
पठित्वा
अत्र सन्धिः अस्ति वा नास्ति वा?
अस्ति न, अस्ति अत्र सम्बन्धम् इति मकार अस्ति, अनुस्वारस्य ये प्रसवर्ण इति भवति.
तत् योगः संयोगः बद्धं
सम् अस्ति.
इत्युक्ते अत्र अत्र किं वदामः,
प्रथमं तु मोनुस्वारः भवति सम्बद्धम् इति, भव सम् इति उपसर्ग अस्ति अतः पदमस्ति मोनुस्वार, मकारस्य अनुस्वारः भवति. अनन्तरं
किन्तु अत्र 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 पश्यतु महोदय, अत्र मोनुस्वारः भवति चेत् तत्र मोनुस्वारः न सूत्रेण अत्र अनुस्वारः न लिखितमस्ति.
अनन्तरम् अनुस्वरस्य ययि परसवर्ण इति भवति वा?
किं भवति
परसवर्ण पावर्गस्य सवर्ण अस्ति अनुस्वारस्य मकार अस्ति
तथा वक्तव्यम् इत्युक्ते तत्र पुनः पश्यन्तु अत्र तत् सम्बद्धम् इति पदं प्रथमवाक्यम् इत्यस्य विशेषणं किन्तु अत्र तत् सम्बद्धं तत्र सन्धिः नास्ति केवलं वर्णमेलनमेव किन्तु सम्बद्ध इति पदं स्वीकुर्मः चेत् तत्र सम् इति उपसर्गः अस्ति बन्ध् इति धातो बन्ध्धातुः अस्ति बन्ध्धातोः लट्लकाररूपं बध्नाति किन्तु बद्ध इति रूपं क्तान्तरूपं बन्ध्धातोः क्तान्तरूपं बद्ध किन्तु यथा महोदयः उक्तवान् अत्र प्रथमतया मूनुस्वारः इति सूत्रेण अत्र मकारस्य स्थाने अनुस्वारादेशः भवति अनन्तरं पुनः परसवर्णादेशः भवति इत्युक्ते पवर्गी अन्तिमव्यञ्जनं मकारः अस्ति इति कृत्वा तत्र पुनः एकवारम् अनुस्वारस्य स्थाने मकारादेशः अभवत् सम्यक् वा महोदय वदतु गीताञ्जलि भगिनी वदतु
भगिनी अहम् अवगच्छामि इति द्वयोः सन्धेः कारणाभ्यां कथमस्ति किन्तु यदि सं पदमस्ति उपसर्गपदम् अस्ति तत् पदम् अपि च मकारान्ते अस्ति तदनन्तरं केवलवर्णमेलनमस्ति
पदान्ते अस्ति
सम् उपसर्गस्य अन्ते मकार अस्ति अत्र सम्बद्धं सम् उपसर्ग सन्धि विना अपि च सम्बद्धं निष्पद्यते इति समीचीनं
न भवति उपसर्ग नूतनपदः अस्ति इदानीं सम्बद्ध इति नूतनपदं भवति तत्र सन्धि अनिवार्या अस्ति
अनिवार्य अस्ति धन्यवादः महोदय सन्धि अनिवार्य
अत्र अनन्तरम् अत्र महोदय प्रथमं वाक्यं लिखतु तत्र केवलम् अनुस्वारः अस्ति केन सूत्रेण अनुस्वारः
तत्तु नश्च पदान्त एकनिमिषम् अनुस्वारमस्ति अग्रे हल् अस्ति हल् अनुस्वारस्य अस्तु नश्च पदान्तस्य जलि न तद् नास्ति अहं
श्रुतवान् पदान्तस्य मकारस्य स्थाने अनुस्वारादेशः भवति हलिपरे
हलिपरे अस्तु
बकार महल् अस्ति चेत्
उत्तमम् इत्युक्ते अत्र मोनुस्वारः इति सूत्रे हलिपरे इति दत्तमस्ति अतः एव तत्र मोनुस्वारः इति सूत्रेण एव अत्र द्वितीयपदस्य प्रथमवर्णः लकारः हल् वर्णः अस्ति इति कृत्वा अत्र अनुस्वारादेशः भवति मकारस्य स्थाने उत्तमम् अनन्तरं वाक्यानि पठतु महोदय
यत्र भवान् गच्छति तत्र अहमपि आगच्छामि अस्तु अत्र भवान् अपि यत्र भवान् क्रीडति तत् सारि यत्र भवान् सारि भवान् अपि क्रीडतु एकनिमिषं भवान् अपि क्रीडतु यत्र अहं गच्छामि यत्र अहं क्रीडामि तत्र भवान् अपि क्रीडतु इति अस्ति
अत्र
बालकाः
अत्र शृणोतु अत्र द्वितीयं वाक्यं पठित्वा तत् सम्बद्धं वाक्यं प्रथमं वाक्यं लेखनीयं प्रथमतया द्वितीयं वाक्यं पठतु इत्युक्ते अत्र प्रथमं वाक्यं तत् सम्बद्धं वाक्यं लेखनीयम् इत्युक्ते किञ्चित् ऊहां कृत्वा सम्भावनां कृत्वा वक्तव्यम् अत्र भवान् अपि क्रीडतु तत्र भवान् अपि क्रीडतु कुत्र यत्र वदतु महोदय,
यत्र यत्र भवान् गच्छति तत्र अहमपि आगच्छामि, यत्र यत्र अहं क्रीडामि तत्र भवान् अपि क्रीडतु इति इति वा
उत्तमम्. इत्युक्ते यत्र किमपि तत्र सम्यक् अस्ति वा नास्ति वा इति तथा नास्ति किमपि. अनन्तरं द्वितीयं वाक्यम्
अस्तु, भवती मा गच्छतु, यत्र 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 सः गच्छति यत्र यत्र सः गच्छति तत्र भवती मा गच्छतु.
अत्र अस्तु उत्तमम्. इत्युक्ते अत्र किञ्चित् परिशीलनं कृत्वा तार्किकदृष्ट्या वदामश्चेत् भवती मा गच्छतु तत्र तत्र भवती मा गच्छतु कुत्र, यत्र यत्र यथा दुर्जनाः सन्ति अथवा वन्यमृगाः सन्ति अथवा किमपि सिंहाः सन्ति किमपि तथा वदामश्चेत् यत्र दुर्जनाः सन्ति तत्र भवतीम् आगच्छतु तथा अपि समीचीनमेव. उत्तमं महोदय, अनन्तरम्
एकनिमिषं, सर्वे सर्वे अपि गच्छन्ति यत्र सज्जनाः यत्र सन्तः गच्छति तत्र सर्वे अपि गच्छन्ति, यत्र यत्र साधवः यत्र साधवः गच्छन्ति तत्र सर्वे अपि गच्छन्ति.
उत्तमं, सन्तः गच्छन्ति साधवः गच्छन्ति तत्र सर्वे अपि गच्छन्ति. उत्तमम्. अन्तिमं करोतु महोदय.
वासं मा करोतु, वासं मा करोतु कुत्र, यत्र 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 वन्यमृगाः सन्ति तत्र वासं मा करोतु, क्रूरमृगाः सन्ति तत्र वासं मा करोतु.
उत्तमं,
क्रूराः मृगाः सन्ति क्रूरमृगाः अथवा क्रूराः मृगाः सन्ति तत्र वासं मा करोतु.
उत्तमम्. इत्युक्ते क्रूरमृगाः इति वदामश्चेत् समस्तं पदं, व्यस्तरूपेण वदामश्चेत् क्रूराः मृगाः सन्ति इति व्यवस्थप्रयोगः. अत्र अहं किं लिखितवती किञ्चित् वदामि. अत्र यत्र मालिन्यमस्ति अथवा यत्र कालुष्यमस्ति, मालिन्यं कालुष्यम् एतानि पदानि अपि तद्धितान्तपदानि, अथवा यत्र वातावरणं समीचीनं नास्ति अथवा यत्र पूतिः अस्ति, पूतिः इत्युक्ते फौल् स्मेल्, फौल् स्मेल् पूतिः इत्युक्ते पूतिगन्धः इति वदामः. अत्र तादृशरीत्या यत्र वातावरणकालुष्यम् अस्ति तत्र वासं मा करोतु इति. उत्तमरीत्या कृतवान् महोदय, धन्यवादः. उत्तमम्. अधुना गीताञ्जलि भगिनी वदतु.
अहम् इति वदामि, यत्र जलं नास्ति तत्र वासं मा करोतु.
उत्तमम्, उत्तमम्. भूमा भगिनी एकं वाक्यं श्रावयतु, यत्र तत्र.
यत्र देवकार्यं भवति तत्र सन्तजनाः आगच्छन्ति. सन्ताः जनः, सन्तजनाः,
सन्तः सन्तः इति पदमस्ति.
सन्तः जनः.
अपि च अत्र नळिनी भगिनी भवती वक्तुमिच्छति वा कानिचन वाक्यानि यत्र तत्र योजयित्वा? भगिनी न श्रूयते. अत्र अपि च अनुराधा भगिनी अपि अस्ति, भवती वक्तुमिच्छति वा कानिचन वाक्यानि? अस्तु अधुना गीताञ्जलि भगिनी एकवारम् अहं प्रथमभागं वदामि, अन्यानि उदाहरणानि अपि किञ्चित् परिशीलयामः. यत्र बालकाः सन्ति तत्र पूरयतु वाक्यम्.
यत्र बालकाः सन्ति तत्र अहं न अस्ति अस्मि. अधुना
अपि च यत्र कृषिः इत्युक्ते परिश्रमः, यत्र कृषिः अस्ति तत्र सफलता भवति. उत्तमम्. अपि च गीताञ्जलि भगिनी वदतु, यत्र माता गच्छति तत्र
यत्र माता गच्छति तत्र तत्र तस्याः बालिकाः गच्छन्ति.
तस्याः बालिकाः अपि आगच्छन्ति. इत्युक्ते यत्र माता गच्छति तत्र पुत्री अपि गच्छति.
पुत्री अपि गच्छति.
उत्तमम्. अपि च
भगिनी
नलिनी भगिनी वदतु.
यत्र उद्योगः तत्र उन्नतिः.
उत्तमम् उत्तमम्. अत्र भवती एव वदतु, यत्र रामः अस्ति तत्र
तत्र सीता
आञ्जनेया
सीता अस्ति.
सीता लक्ष्मणः लक्ष्मणः च अस्ति.
आञ्जनेय सदा भवति.
भगिनी भवती एव वदतु नलिनी भगिनी, यत्र मत्स्याः सन्ति तत्र
तत्र जलम् अस्ति.
इत्युक्ते जलमस्ति चेदेव मत्स्याः सन्ति, किन्तु यत्र मत्स्याः सन्ति तत्र धीवराः गच्छन्ति. धीवराः इत्युक्ते भगिनी वदतु, धीवराः इत्युक्ते के?
फिशर्मेन्.
उत्तमम्. फिशर्मेन्. यत्र यत्र रामायणस्य पठनं भवति तत्र
आञ्जनेय आगच्छति. सत्यं
सत्यमेव. वदतु नलिनी भगिनी वदतु, यत्र यत्र रामायणस्य पठनं भवति
रामायणस्य पठनं भवति तत्र तत्र वातावरणम् अनुकम्पा भवामि.
अनुकम्पा भवति. उत्तमम् उत्तमम्. अपि च यत्र यत्र वल्मीकः अस्ति. वल्मीकः इत्युक्ते नळिनी भगिनी वदतु, यत्र वल्मीकः अस्ति तत्र प्रायः
सर्पः भवति अस्ति.
सर्पः भवति, सर्पः निवासं करोति. उत्तमम्. अपि च यत्र यत्र आसन्दाः सन्ति तत्र
तत्र
जनाः स्थूलः भवन्ति,
राजकारणी भवन्ति.
किमपि इत्युक्ते किमपि वदतु, यत्र आसन्दाः सन्ति तत्र जनाः उपविशन्ति.
तथा कोऽपि उपविशति तत्र कोऽपि उपविशति.
उत्तमम् उत्तमम्.
उपविशति
तदेव. उत्तमं. तथा एव यत्र यत्र स्वच्छता अस्ति, शुद्धता अस्ति अथवा निर्मलता अस्ति तत्र
तत्र आरोग्यम् अस्ति.
उत्तमम्. आरोग्यम् अस्ति इत्युक्ते तत्र आरोग्यम् इति पदस्य अन्यं पदमस्ति अनामयम्. अनामयम् इत्युक्ते अमयम् इत्युक्ते रोगः, अनामयम् इत्युक्ते अनामयम् इत्युक्ते आरोग्यम्, यत्र स्वच्छता अस्ति तत्र आरोग्यं वर्तते. उत्तमं. यत्र विज्ञानमस्ति तत्र वदतु भगिनि, यत्र विज्ञानमस्ति तत्र
तत्र वातावरणं प्रसन्नं भवति.
उत्तमम्. इत्युक्ते यत्र विज्ञानमस्ति तत्र मूढता नास्ति. उत्तमम्. अपि च यत्र 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 गुडमिश्रितमधुरखाद्यानि सन्ति,
तत्र तत्र पिपीलिकाः आगच्छन्ति.
आगच्छन्ति. उत्तमम्. यत्र यत्र जनचैतन्यमस्ति तत्र
तत्र जनचैतन्यम् अस्ति तत्र उन्नतिः भवति.
उन्नतिः भवति. धन्यवादः भगिनी. किञ्चित् ध्वनिः अस्ति अतः म्यूट् करोमि. उत्तमम्. अधुना वयं पूर्वमेव दृष्टवन्तः यत्र धूमः अस्ति तत्र वह्निः स्यात् इति अर्थः. अपि च अत्र गीतासोपानं पुस्तके कानिचन पदानि सन्ति, बहु उत्तमानि पदानि सन्ति तत्र. तेषां योजनेन अपि यत्र तत्र इति पदद्वयस्य अभ्यासः भवति. तदर्थं तत्र किञ्चित् सर्वेषां पार्श्वे गीतासोपानम् अस्ति चेत् तत्र त्रिंशत्तमं पुटं पश्यन्तु. तत्र एकः अभ्यासः अस्ति. नो चेत् अहं पदद्वयं वदामि, भवन्तः वाक्यं रचयन्तु. अत्र भूमा भगिनी, अहङ्कारः क्रोधः पदद्वयं. शोभा भगिनी, क्षमा शान्तिः. वंशीसुधा भगिनी, उद्वेगः सन्तापः. आचार्यमहोदयः, भक्तिः भगवदनुग्रहः. उषा भगिनी, आशा दुःखम्. गीताञ्जलि भगिनी, द्वेषः मनस्तापः. इतोपि के सन्ति? नलिनी भगिनी, परोपकारः पुण्यम्. अपि च अन्ये के सन्ति? रघुपति आचार्यमहोदय, सेवा मनश्शान्तिः. अपि च अत्र इतोपि पदद्वयमस्ति. सर्वे प्राप्तवन्तः वा अत्र पदद्वयम्? अत्र अत्र नलिनी भगिनी, परिश्रमः साफल्यं दत्तवती वा?
यत्र परिश्रमः परिश्रमः भवति यत्र परिश्रमः भवति तत्र साफल्यम् अपेक्षते.
साफल्यम् अपेक्षते. उत्तमम्. उत्तमं.
साफल्यम् अपेक्षते तत्र परिश्रमः भवति इति. तत्र परिश्रमं परिश्रमम् आवश्यकम् इति.
इत्युक्ते यत्र साफल्यम् अपेक्षते तत्र परिश्रमः आवश्यकः, अथवा यत्र परिश्रमः अस्ति तत्र साफल्यम् एव परिणामः. तादृशरीत्या वक्तुं शक्नुमः. सर्वे श्रावयन्तु वाक्यानि. आरम्भे भूमा भगिनी वदतु.
यत्र अहङ्कारः न वर्तते तत्र क्रोधः न भवति.
क्रोधः न वर्धते. उत्तमं. उत्तमम्. अधुना अत्र उषा भगिनी वदतु.
आशा दुःखम् अस्ति भगिनि. यत्र यत्र आशा अस्ति, अधिकेन आशा अस्ति तत्र दुःखम्
अनुभव फलम् दुःखमेव एव फलम् उत्तमं. वदतु भवत्याः वाक्यं श्रावयतु.
यत्र यत्र आशा यस्मिन् यस्मिन्नपि वक्तुं
यस्मिन् यस्मिन् दुराशा अस्ति
यस्मिन् दुराशा अस्ति तस्मिन् दुःखं दुःखम् अनुभवति.
इत्युक्ते अत्र भगिनि अस्माकम् अभ्यासः तु यत्र तत्र
यत्र आशा अस्ति
अस्ति
दुःखं फलं
दुःखं वर्तते अथवा दुःखम् एव फलं दुःखं विद्यते तदेव तादृशरीत्या उत्तमम्. अधुना अत्र शोभा भगिनी वदतु.
यत्र क्षमा विद्यते तत्रैव शान्तिः भवति.
उत्तमं. संस्कृता भगिनी
भगिनि यत्र जनाः उद्वेगेन वदन्ति तत्र अवश्यं सन्तापः अनुवर्तते.
तत्र सन्तापः अनुवर्तते. अनन्तरम् अत्र आचार्यमहोदय भवान् वदतु.
यत्र भक्तिः अस्ति तत्र भगवदनुग्रहः सदा वर्तते.
सदा वर्तते. अपि च परोपकारः पुण्यं वदतु.
परोपकारः पुण्यं यत्र यत्र परोपकारः यत्र परोपकारः भवति एकनिमिषम् यत्र परोपकारः भवति तत्र पुण्यं तत्र पुण्यं लभते अस्ति.
पुण्यं लभते पुण्यं लभते. उत्तमं. सेवा मनश्शान्तिः कः प्राप्तवती का प्राप्तवती अत्र सेवा मनश्शान्तिः कोऽपि वदतु. सेवा मनश्शान्तिः
यत्र अहं वदामि वा भगिनि अहं वदामि वा भगिनी अनुराधा
अनुराधा
यत्र सेवामनोभावः वर्तते भवति तत्र मनश्शान्ति लभते.
उत्तमं.
मनश्शान्तिं लभते. मनश्शान्तिः
तत्र किमर्थं कर्मपदं न सम्भवति कोऽपि वदति वा. लभते लब्धातुः कीदृशः
अकर्मकधातु
आत्मनेपदि. उत्तमम्. इतोपि वाक्यं श्रावयतु भगिनि. भवती इदानीं पर्यन्तं न उक्तवती कानिचन वाक्यानि वदतु यत्र तत्र योजयित्वा.
यत्र देवालयम् अस्ति यत्र देवालयम् अस्ति तत्र भक्ताः भक्ताः सन्ति.
उत्तमम्. अपि च
भगिनी यत्र संस्कृतशिबिरं भवति तत्र सर्वे छात्राः गच्छन्ति.
यत्र संस्कृतशिबिरमस्ति तत्र सर्वे छात्राः गच्छन्ति. उत्तमं. तथा एव. उत्तमं. भवन्तः सर्वे सम्यक् अवगतवन्तः यत्र तत्र इत्यस्मिन् विषये. उत्तमं. अधुना वदतु भगिनि वदतु.
यत्र द्वेषः वर्धते तत्र मनस्तापः अवश्यं वर्धते.
मनस्तापः वर्धते. उत्तमम्. अधुना भगिनी अहमपि एकवाक्यं वक्तुम् इच्छामि. वदतु भगिनि वदतु.
यत्र कोऽपि शिक्षणं
प्राप्तुं यत्र कोऽपि शिक्षणं प्राप्तुम् इच्छति तत्र मार्गः
पश्यतु
तत्र मार्गः लभ्यते
लभ्यते मार्गः लभ्यते उत्तमम् उत्तमम् उत्तमं भगिनि अनन्तरम् अधुना वयं किञ्चित् ध्वनिः अस्ति चेत् म्यूट् कुर्वन्तु कृपया अधुना अत्र अस्माकं पार्श्वे चत्वारि करपत्राणि सन्ति अहं चत्वारि करपत्राणि प्रेषितवती किमर्थम् इत्युक्ते गतसप्ताहान्ते वयं सर्वे दीपावलिपर्वदिनम् आचरितवन्तः साधारणतया भारतदेशे दीपावलि उत्सवसमये रामलीला इति नृत्यनाटकं प्रदर्शयन्ति किन्तु अद्य वयं संक्षेपरामायणम् इति एकं कथां पठामः तत्र दीपावलिपर्वदिनसन्दर्भे तत्र कथा अस्ति कथा नास्ति तत्र करपत्रमस्ति करपत्रं पठामः तेन किञ्चित् सन्दर्भशुद्धिः भवति इट्स् मोर् अप्रोप्रियेट् शुद्धिः भवति अत्र दीपावलिः इति पदमस्ति दीपावलिः इति पदं समस्तपदं कोऽपि वदति वा तत्र विग्रहवाक्यं किं समासस्य नाम किं
दीपावलिः
उत्तमम् अत्र समासस्य नाम किं षष्ठीतत्पुरुषसमासः इत्युक्ते तत्र पूर्वस्मिन् पदे षष्टिविभक्तेः लोपः अभवत् अतः दीपानाम् आवलिः अत्र आवलिः इत्युक्ते किं महोदय
आवलि इत्युक्ते सरणि
संस्कृतभाषायां कानिचन पदानि सन्ति पङ्क्तिः पङ्क्तिः अथवा श्रेणिः तादृशानि पदानि सन्ति आवलिः आवलिः इति पदस्य अर्थः पङ्क्तिः अथवा श्रेणिः इति अर्थः अस्ति उत्तमम् अधुना सर्वे तत्र प्रथमं करपत्रं पुरतः स्थापयन्तु अत्र संक्षेपरामायणम् इति तत्र पठामः अधुना अत्र गीताञ्जलि भगिनी भवती पठतु अत्र
संक्षेपरामायणम् इदम् अवधेयम् भूतकालार्थं बोधयितुं केचन प्रकाराः भवन्ति ते लङ्लकारः दशमः पाठः स्म भूतकृदन्तः इत्यादयः च अग्रे पठामि उदाहरणानि लङ्लकारे बालकः अपठत् बालिका अपठत् शिष्याः अवदन् स्म बालकः पठति स्म बालिका पठति स्म शिष्याः वदन्ति स्म यद्यपि क्रियापदं लट् लकारे भवति स्म योगे लङ् लकारस्य अर्थः बोधितः भवति भूतकृदन्तः बालकः पठितवान् बालिका पठितवान् शिष्याः उक्तवन्तः भूतकृदन्ताः तिङन्ताः क्रियापदानि न इति स्मर्तव्यम् ते सुबन्ताः एव
उत्तमम् अधुना किञ्चित् चिन्तनं कुर्मः संक्षेपरामायणम् इति पदमस्ति अत्र समासस्य नाम किं कोऽपि वदति वा
hmm.
अहं चिन्तयामि विशेषेण पूर्वपदक संक्षेप इति पदं विशेषणमस्ति, विशेषणपूर्वपदकर्मधारयसमासः. अत्र रामायणम् इति पदमपि समस्तपदं. कोऽपि वदति वा विग्रहवाक्यं?
रामस्य अयनं, रामायणं.
रामस्य अयनं रामायणं. तत्र अणकारः किमर्थं महोदय? नत्वं किमर्थं? रेफकारणात्. उत्तमं. रामस्य अयनं. अत्र अयनं कीदृशं पदम्?
लुडन्तं.
लुडन्तं, लुडन्तं पदम् अयनम् इति लुडन्तं पदम्. अत्र अयते, अयेते, अयन्ते. ऐ धातुः गतौ भ्वादिगणीयधातुः. ऐ अकारः यकारः अस्ति तत्र. ऐ धातुः. उत्तमम्. अवधेयम् इति पदमस्ति. इदम् अवधेयम्. अवधेयम् अत्र अवधेयम् इति पदस्य रूपं कोऽपि वदति वा?
उपसर्ग अव धि धातुः.
धा धातुः.
ओ धा.
दधाति. दधाति इति रूपम्. अपि च यत् इति प्रत्ययः. अव उपसर्गपूर्वकः, धा धातुः, यत् प्रत्ययः. यदि धा धातुः अस्ति चेत् देयं, धा धातुः अस्ति इति कृत्वा धेयम् इति वदामः. इदम्, इदं पदस्य रूपाणि कोऽपि वदतु.
नपुंसकलिङ्ग प्रथम पुरुष एकवचन.
वदतु भगिनि, उषा भगिनि.
मकारान्त स्त्रीलिङ्गः इदं शब्दः.
न न न न न न, स्त्रीलिङ्गं स्त्रीलिङ्गपदं नास्ति भगिनि. इदम्, इदं शब्दः.
अयम् इदम्. इदम् इमे इमाः न भगिनि? इयम् इमे इमाः?
न न न न न, अत्र पश्यतु. इदं शब्दः नपुंसकलिङ्गशब्दः. वंशसुधा भगिनी वदतु.
इदम् इमे इमानि भगिनि.
इदम् इमे इमानि. द्वितीयविभक्त्यन्तरूपं रूपाणि वदतु.
द्वितीयविभक्ति समानमेव. इदम् इमे इमानि एव भवति भगिनि.
इदम् इमे इमानि. यद्यपि अत्र किं दत्तमस्ति, लङ्लकाररूपम् अपि वयं वक्तुं शक्नुमः, अथवा स्मायोजने योजयित्वा अपि तदेव वाक्यं स्मायोजयित्वा अपि वक्तुं शक्नुमः. अपि च भूतकृदन्तः इति दत्तमस्ति. भूतकृदन्तपदमपि योजयित्वा वदामश्चेदपि तादृश अर्थः एव सिद्ध्यति इति लिखितमस्ति. भूतकृदन्तपदम् इत्युक्ते किं? कोऽपि वदतु.
भूतकालिककृदन्तपदानि, यत् कृदन्तपदाः भूतकालं सूचयति, ते भूतकृदन्ताः.
इतोपि किञ्चित् वदतु महोदय. कृदन्तं, कृदन्तं पदम् इत्युक्ते तत्र किञ्चित् इतोपि वदतु.
कृत् कृत् अन्ते अस्ति, तत् कृदन्तं. कृत् प्रत्यय पदम्
इत्युक्ते कृत् अन्ते, कृत् प्रत्ययः धातोः अन्ते अस्ति चेत् कृदन्तपदं सिद्ध्यति. कृत् अन्ते यस्य सः कृदन्तः. समासः कः? बहुव्रीहिसमासः.
भगिनी, कृत् इति प्रत्ययः अस्ति.
प्रत्ययाः द्विप्रकारकाः, तिङ् प्रत्ययाः, कृत् प्रत्ययाः. अत्र धातोः अन्ते कृत् प्रत्ययः अस्ति चेत् कृदन्तपदं सिद्ध्यति. किन्तु अत्र भूतकालिककृदन्तपदम् इति लिखितमस्ति. भूतकालार्थं बोधयति एतत्. एषः प्रत्ययः तवत् प्रत्ययः सर्वदा भूतकालार्थं बोधयति. अतः भूतकृदन्तपदम्. अत्र भूतकृदन्तपदानि कानि? शोभा भगिनी वदतु.
तत्र दत्तमस्ति तानि पदानि भगिनी. बालकः पठितवान् पठितवती पठितवान् पुंलिङ्गे पठितवती स्त्रीलिङ्गे उक्तवन्तः इति बहुवचने पुंलिङ्गे.
उत्तमम्. अत्र अत्र भूतकृदन्ताः तिङन्ताः इति पदद्वयमस्ति. तयोर्मध्ये भेदः कः? वंशसुधा भगिनी वदतु. भूत् कृदन्ताः तिङन्ताः.
आं भगिनि, भूतकृदन्ताः तिङन्ताः तत्र तिङन्ताः इति क्रियापदमस्ति. भूतकृत प्रातिपदिकम् अस्ति. सुबन्तपदमेव अस्ति भगिनि.
इत्युक्ते अहं किं श्रोतुमिच्छामि इत्युक्ते कृदन्तपदं तिङन्तपदं द्वयोर्मध्ये भेदः कः?
कृदन्तपदे सुप् प्रत्ययः आगच्छति भगिनि. तिङन्तपदे सुबन्त तिङन्त तिप् प्रत्ययः आगच्छति.
क्रियाविशेषमस्ति.
इत्युक्ते कथं वक्तव्यं? धातुतः विधीयमानाः प्रत्ययाः द्विप्रकारकाः, कृत्प्रत्ययाः अपि च तिङ्प्रत्ययाः. कृत्प्रत्ययाः कृत्प्रत्ययस्य योजनेन कृदन्तप्रातिपदिकं सिद्ध्यति. कृदन्तप्रातिपदिकस्य अनन्तरं पुनः वयं सुप्रत्ययं योजयामः. अत्र पठितवान् अत्र पठितवान् इति कृदन्तपदमस्ति, किन्तु तत्र प्रातिपदिकं पठितवत्. इत्युक्ते कृदन् कृत्प्रत्ययस्य योजनेन कृदन्तप्रातिपदिकं सिद्ध्यति. तदनन्तरं वयं पुनः सुप्रत्ययं योजयामः. तथा एव धातुतः तिङ्प्रत्ययस्य योजनेन वयं जानीमः तिङ्प्रत्ययाः सन्ति, अष्टादश तिङ्प्रत्ययाः सन्ति. तेषां योजनेन तिङन्तपदं सिद्ध्यति. किन्तु अद्यतन अस्माकं विषयः तु भिन्नः. अत्र स्मर्तव्यं तस्य रूपं किं? कोऽपि वदतु.
तव्यत् प्रत्ययः.
तव्यत् प्रत्ययः स्मृधातोः रूपम्. उत्तमं. कर्मण्य इत्युक्ते अपि च कर्मण्यर्थे एव तस्य उपयोगः भवति. अत्र पश्यतु, वाक्यं पश्यतु. भूतकृदन्ताः तिङन्ताः न इति स्मर्तव्यं. कैः स्मर्तव्यं?
क्रियापदेन इति स्मर्तव्यं.
क्रियापदेन
कैः?
अस्माभिः.
शोभा भगिनी यथा उक्तवती, अस्माभिः स्मर्तव्यं. यद्यपि तत्र अस्माभिः इति न उक्तमस्ति, तत्र अध्यावरोपणं कुर्मः. अस्माभिः स्मर्तव्यम् इति वाक्यं कर्मण्यर्थे अस्ति. उत्तमम्. अधुना कथां पठामः? शोभा भगिनी एकवारं प्रथमम् वदतु.
भगिनी एकः प्रश्नः, भूतकृदन्ताः तिङन्ताः क्रियापदानि इति तिङन्ताः एव क्रियापदानि अस्ति, परन्तु भूतकृदन्ताः तिङन्ताः एव प्रातिपदिकमस्ति न भगिनि?
इत्युक्ते भूतकृदन्ताः अपि वाक्येषु क्रियापदम् इव कार्यं करोति. किन्तु कृदन्तपदं सुबन्तम् एव.
आं भगिनि.
इत्युक्ते कृदन्तपदं कृदन्तपदस्य प्रातिपदिकं स्वीकृत्य तदनन्तरम् अन्ते वयं सुप्रत्ययं योजयामः. तदर्थम् अन्ते सुप्रत्ययः अस्ति इति कारणतः कृदन्तपदं सर्वदा सुबन्तं, न तु तिङन्तम्.
ओ अस्तु अस्तु भगिनि.
इत्युक्ते कृदन्तपदस्य अन्ते सुप्रत्ययः अस्ति सर्वदा.
सर्वदा.
किन्तु तिङन्तपदेषु तत्र केवलं तिङ्प्रत्ययः एव अन्ते दृश्यते.
अस्तु अस्तु.
कृदन्ताः सुबन्ताः एव. इत्युक्ते तत्र यद्यपि धातुतः कृदन्तपदं निर्मितमस्ति, किन्तु तत्र अन्ते सुप्रत्ययः आगच्छति एव.
पदसंज्ञा भवति यदा सुप्रत्यय आयोजनेन एव पदा भवति.
आम्. इत्युक्ते
कृदन्तपद कृदन्तपद इत्युक्ते सुबन्त.
उत्तमम्. कृदन्तपदम् इत्युक्ते सुबन्तपदमेव. इत्युक्ते वयं जानीमः संस्कृतभाषायां पदम् इत्युक्ते किं सुप् तिङ्गन्तं पदम् सुबन्तं वा भवतु तिङ्गन्तं वा भवतु तदेव पदम् इति वदामः. किन्तु साधारणतया वयं तिङ्गन्तपदानि एव क्रियापदानि इति वदामः. किन्तु यदा कदापि कृदन्तपदानि अपि क्रिया इव कार्यं करोति. अत्र पश्यतु, बालकः पठितवान् पठितवान् इति पदं कृदन्तपदं, किन्तु क्रियापदम् इव कार्यं करोति तस्मिन् वाक्ये. उत्तमं, तदेव. अनन्तरम् अत्र प्रथमपरिच्छेदं पठामः अधुना. अत्र भूमा भगिनी भवती पठतु.
एतां कथाम् उच्चैः पठत. महर्षिः वाल्मीकिः तमसा नद्याः तीरे वसति स्म. एकदा देवर्षिः नारदः तस्य आश्रमम् आगतवान्. वाल्मीकिः नारदं प्रणम्य उक्तवान्, अस्ति मम जिज्ञासा, लोके कः श्रेष्ठपुरुषः इति.
उत्तमम्. अत्र वयं कथां जानीमः एव, किन्तु किञ्चित् व्याकरणांशान् परिशीलयामः. अत्र महर्षिः इति पदमस्ति. अत्र कोऽपि वदति वा समस्तपदं? तत्र सन्धिः अस्ति, अपि च समासः अपि अस्ति.
सन्धि महा प्लस् ऋषि महर्षिः.
वदतु भगिनि.
महा प्लस् ऋषिः महर्षिः.
सन्धेः नाम किम्?
सन्धि अ प्लस् महा प्लस् ऋषिः.
वदतु
महर्षिः.
वदतु गीताञ्जलि भगिनी, वदतु.
गुणसन्धि भगिनि.
गुणसन्धि.
उत्तमं. गीताञ्जलि भगिनी गुणसन्धि सूत्रं वदतु. कोऽपि वदतु, चिन्ता मास्तु भगिनि. अत्र सूत्रद्वयमस्ति, सूत्रद्वयमस्ति, तयोर्मध्ये भेदः कः? अत्र अदेङ्गुणः आद्गुणः.
अदेङ्गुणः इति गुणवर्णाः सूचयति भगिनि. अदेङ्गुणः इत्युक्ते अत् एङ् अत् इत्युक्ते तपरकरणम् अकारः एकारः ओकारः. अत् एङ् गुणः, त्रीणि गुणवर्णाः सन्ति. आद्गुणः
इत्युक्ते तत् सूत्रं संज्ञासूत्रं. संज्ञासूत्रं किन्तु आद्गुणः
विधिसूत्रम्.
आद्गुणः विधिसूत्रम्. उत्तमं. तत्र महर्षिः इति पदमस्ति. अपि च अत्र वाल्मीकिः इति पदमस्ति. वाल्मीकिः इति पदमपि समस्तपदं. कोऽपि वदति वा तस्य अर्थः कः? इत्युक्ते अत्र
संस्कृतभाषायां धृतवान्.
इत्युक्ते वल्मीकं, वल्मीकः पुंलिङ्गे अपि पदमस्ति, नपुंसकलिङ्गे अपि अस्ति. वल्मीकं वल्मीकः अस्ति. वल्मीकः इत्युक्ते आण्ट् हिल् इति वदामः. वल्मीकेः भवः वाल्मीकिः इति तदपि तत्र तद्धितान्तं रूपम् इति भाति. वाल्मीकिः तमसा नद्याः तीरे वसति स्म. तमसा नदी. वदतु भगिनि.
भगिनि अहं न अवगच्छामि. वाल्मीकिः समास वल्मीकेः अपि च किं प्रत्यय?
वल्मीकेः भवः. सम्भवति. वल्मीकेः वल्मीके भवः.
प्रत्यय किं? प्रत्ययः अस्ति अस्ति भगिनि वाल्मीकिः इति
सप्तमी विभक्ति अस्ति वाल्मीके भवः
वाल्मीके भवः
वाल्मीकेः
भगिनि पश्यतु गीताञ्जलि भगिनी वाल्मीकेः इति वदामश्चेत् तत्र रूपं किम् अपि च रूपं भिन्नं रूपं वाल्मीकेः इति वदामश्चेत् परन्तु अत्र वाल्मीके भवः सप्तमी रूपं
वाल्मीके भव ओके
अपि च तमसा नदी इति पदमस्ति अत्र तमस् इति पदमस्ति तमस् इत्युक्ते किम्
त्रिषु गुणेषु एकं
यः ज्योति नास्ति यत्र ज्योति नास्ति तत्र तमस
अज्ञानम्
इत्युक्ते इत्युक्ते मानसिक अन्धकारः मानसिक अन्धकारः एव तमस् किन्तु अत्र तमसा नदी इति किमर्थमस्ति अहं न जानामि तमसा नद्याः तीरे वसति स्म सः एकदा देवर्षिः नारदः तस्य आश्रमम् आगतवान् वाल्मीकिः नारदं प्रणम्य अत्र प्रणम्य इति पदमस्ति भूमा भगिनी वदतु प्रणम्य रूपं किं
ल्युडन्तपदं
प्र
उपसर्गपूर्वक
ल्यपन्तपदं ल्यबन्तपदं ल्यबन्तपदम् उत्तमम् अत्र प्रणम्य उक्तवान् अस्ति मम जिज्ञासा जिज्ञासा इति पदस्य विषये वदतु कोऽपि अत्र अनुराधा भगिनी वदतु
जिज्ञासा इत्युक्ते क्यूरियोसिटि
अत्र पदं वंशीसुधा भगिनी वदतु जिज्ञासा तत्र प्रत्ययः कः
प्रत्ययः
प्रत्ययः न जानामि भगिनि
अत्र रघुपताचार्यमहोदय भवान् वदति वा
द्वित्वं भगिनि
अत्र जिज्ञासा इति पदम् अत्र सन् प्रत्ययान्तरूपं सन् प्रत्ययान्तरूपं तत्र इच्छार्थे प्रेरणार्थे णिच् वदामः इच्छार्थे सन् वदामः सन् प्रत्ययान्तरूपं ज्ञातुम् इच्छा ज्ञातुम् इच्छा जिज्ञासा सः वदति मम ज्ञातुमिच्छा जिज्ञासा सः वदति
इच्छा
नारदं प्रणम्य वाल्मीकिः वदति मम जिज्ञासा अस्ति लोके श्रेष्ठपुरुषः कः इति पदमस्ति अत्र श्रेष्ठपुरुषः अत्रापि समासः अस्ति समासस्य नाम किं विशेषणपूर्वपद कर्मधारयसमासः अत्र श्रेष्ठ इति पदे अपि एकः प्रत्ययः अस्ति इष्टन् प्रत्ययः इष्टन् प्रत्ययः अस्ति चेत् तत्र गीताञ्जलि भगिनी वदति वा
न जानामि भगिनि इष्टन्
अत्र इयसुन् प्रत्ययः इष्टन् प्रत्ययः इत्युक्ते कम्पेरेटिव् डिग्रि सूपर्लेटिव् डिग्रि तस्मिन् अर्थे तत्र इयसुन् प्रत्ययः इत्युक्ते एकः प्रत्ययः इष्टन् प्रत्ययः अन्यः प्रत्ययः अत्र आङ्ग्लभाषायां सूपर्लेटिव् डिग्रि इति वदामः श्रेष्ठ इति पदमस्ति किन्तु अत्र श्रेयस् इति रूपात् श्रेष्ठ इति पदम् आगतं श्रेयस् किन्तु अत्र इष्टन् प्रत्ययस्य रूपम् उत्तमम् अनन्तरम् अत्र द्वितीयं परिच्छेदं पठित्वा समापयामः वयम् अत्र शोभा भगिनी भवती पठतु अत्र
नारदः वाल्मीकिं प्रत्युक्तवान् अयोध्यायां दशरथः इति महाराजः अस्ति तस्य तिस्रः भार्याः सन्ति तासु ज्येष्ठा कौसल्या तस्याः पुत्रः रामः दशरथस्य द्वितीया भार्या सुमित्रा तस्याः लक्ष्मणः शत्रुघ्नः च इति द्वौ पुत्रौ स्तः कनिष्ठा भार्या कैकेयी, तस्याः पुत्रः भरतः, एवं दशरथस्य चत्वारः पुत्राः सन्ति.
उत्तमम्. अत्र नारदः वाल्मीकिं प्रत्युक्तवान्. अत्र सन्धिः कः भगिनी वदतु, सन्धेः नाम किम्?
प्रति उक्तवान् इति अस्ति, प्रति उपसर्गपूर्वक,
प्रति उपसर्ग
यण् सन्धि.
यण् सन्धिः, यण् सन्धिः, अतः प्रत्युक्तवान्. अत्र प्रति इति उपपदमस्ति इति कृत्वा साधारणतया प्रति इति अस्ति चेत् तत्र द्वितीयाविभक्त्यन्तपदं सिद्ध्यति. नारदः वाल्मीकिं प्रति उक्तवान्, वाल्मीकिं प्रति उक्तवान्. अनन्तरम् अयोध्या, उत्तमम्. अयोध्यायां दशरथः इति महाराजः अस्ति. अयोध्यायां रूपं किम्?
अयोध्यायां सप्तमी विभक्ति एकवचने. अयोध्या इति
वदतु, अयोध्या इति पदस्य विषये वदतु.
अयोध्या इति स्त्रीलिङ्गे अस्ति इति भाति.
स्त्रीलिङ्ग, स्त्रीलिङ्गे,
अतः
अत्र अयोध्या इति पदस्य अर्थः कः इति पश्यामश्चेत् तत्र तस्य आक्रमणं कर्तुं न शक्यम्. अयोध्या अत्र आ इति नकारात्मक अर्थे अस्ति. यस्य आक्रमणं कर्तुं न शक्यं.
बृहत्
स एव
सुन्दरं भगिनि,
स एव अयोध्या. अनन्तरम् अत्र दशरथः इति महाराजः अस्ति. महाराजः अत्रापि समस्तपदमस्ति. महान्, महान् राजा. विग्रहवाक्यं कथं भवति? महान् राजा. किन्तु पदं नकारान्तपदमस्ति चेत् तत्र नकारं त्यक्त्वा तत्र प्रातिपदिकस्य विपरीतरि भिन्नरूपं स्वीकृत्य समस्तपदं निर्मामः. महाराजः इति समस्तपदम्. एकः राजा अस्ति, तस्य नाम दशरथः.
भगिनी क्षम्यतां, किमर्थम् अत्र महान् योगः राजः, किन्तु तत्र महायोगः ऋषिः? किमर्थं महान् नास्ति तत्र?
पूर्वस्मिन् अत्र महर्षिः इत्यस्मिन् पदे यत्र यत्र समासः अस्ति तत्र सन्धिः नित्यः इति एकः नियमः. अत्र महर्षिः इत्यस्मिन् पदे गुणसन्धिः अस्ति. किन्तु सन्धिः इत्युक्ते वर्णानां कार्यं, वर्णमेलनस्य कारणं, कार्यम् इत्युक्ते दट् इस् ए टास्क् बिट्वीन् लेटर्स्. किन्तु समासः इत्युक्ते पदानां मध्ये कार्यं, पदानां मेलनं. सन्धिः इत्युक्ते वर्णानां मेलनं, किन्तु समासः इत्युक्ते पदानां मेलनं. अत्र पदद्वयं योजयित्वा पदद्वयस्य मेलनं कृत्वा समस्तपदं निर्मामः. अत्र महाराज, अत्र महा इति शब्दस्य विषये कानिचन सूत्राणि सन्ति. राजा इति पदस्य विषये अपि तेन अत्र विग्रहवाक्यं महान् राजा, महाराजः इति समस्तपदम्. उत्तमम्. अनन्तरम् अत्र तस्याः, तासु ज्येष्ठा कौशल्या, तस्याः पुत्रः रामः. रामः इत्यस्य विषये कोऽपि वदति वा?
यः अज्ञानं निवारयति,
यः सदा रमति
रामः.
वदतु. तदेव इत्युक्ते अत्र रं धातोः रूपं वयं अहं पूर्वम् उक्तवती, रमन्ते तत्र देवताः, रमन्ते. अत्र रं धातुः अस्ति, रं धातुतः घञ् प्रत्ययः अस्ति. अत्र रामः इत्युक्ते अत्र आनन्दप्रदः, आनन्दं ददाति अथवा हर्षदायकः इति अर्थः. रामः इत्युक्ते आनन्दप्रदः, प्रदः इत्युक्ते ददाति, आनन्दं ददाति, अन्यान् रमयति इति अर्थः. दशरथस्य द्वितीया भार्या सुमित्रा, तस्याः लक्ष्मणः शत्रुघ्नः च इति द्वौ पुत्रौ स्तः. यद्यपि अत्र न दत्तमस्ति, लक्ष्मणस्य यमलभ्राता एव शत्रुघ्नः. यमलभ्राता इत्युक्ते कोऽपि वदति वा? यमल
ट्विन् ब्रदर्, ट्विन् ब्रदर्, ट्विन् ब्रदर्,
ट्विन् ब्रदर्, लक्ष्मणस्य यमलभ्राता शत्रुघ्नः. अत्र शत्रुघ्नः इति पदमपि समस्तपदम्. कोऽपि वदति वा तत्र?
शत्रुं जयति इति शत्रुघ्नः.
शत्रुः
इत्युक्ते तथा एव शत्रून् हन्ति. शत्रून् हन्ति शत्रुघ्नः. अत्र हन् धातुः, यदि वयं हन् धातुं पश्यामश्चेत् एकवचनरूपं हन्ति, बहुवचनरूपं घ्नन्ति. घ्नन्ति हन्ति घ्नन्ति बहुवचनरूपं घ्नन्ति. तादृशरीत्या शत्रून् हन्ति शत्रुघ्नः इति अर्थः अस्ति. अपि च
समास
तदपि पदं कथं निष्पन्नं भवति? अर्थः द्रष्टव्यः भगिनि, अत्र अर्थः अस्ति एव. अनन्तरं कनिष्ठा भार्या कैकेयी इति दत्तमस्ति. कैकेयी इति पदम् अपि तद्धितान्तपदम्. अत्र वदतु भगिनि.
एक अपत्यं पुत्री,
तत्र कथं वक्तव्यम् इत्युक्ते केकयानां राजा कैकेयः. केकयानां राजा कैकेयः, कैकेयस्य पुत्री
कैकेयी,
कैकेयी तादृशरीत्या पदं भवति. केकयानां राजा, तत्र केकयाः इत्युक्ते केकया इत्युक्ते तस्य देशस्य तस्य देशस्य जनः केकयः, केकयः इति अस्ति. राजाय राज्ञः नाम कैकेयः, तस्य पुत्री इति कारणतः कैकेयी इति भवति अत्र. कैकेयी अत्र भरतः इति अस्ति, भरतः इति पदमस्ति, तस्यापि अर्थः अस्ति. भरं तनोति भरतः इति लिखितमस्ति. उत्तमम्. इदानीं पर्यन्तं वयं किञ्चित् चिन्तनं कृतवन्तः एतानि पदानि कथं निष्पन्नानि. समीचीनतया चिन्तनम् अभवत्, किन्तु अत्र इतोपि कथा अस्ति. सर्वे पठन्तु एकवारम्, अग्रिमे सप्ताहे पुनः एकवारं मिलित्वा एतां कथां समापयामः. अपि च तत्र अहं श्लोकत्रयं प्रेषितवती. श्लोकत्रयं कुतः स्वीकृतम् इत्युक्ते साक्षात् रामायणपुस्तकात् उद्धृतम् उद्धृतान् श्लोकान् प्रेषितवती अहं. तत्र बालकाण्डे त्रयः श्लोकाः सन्ति. अत्र कोन् वस्मिन् साम्प्रतं लोके इति श्लोकात् आरभ्य अत्र लोके कः श्रेष्ठपुरुषः इति उक्तवान्, तस्य उत्तरम् एव रामायणं. तस्य वाल्मीकेः प्रश्नस्य उत्तरम् एव रामायणकथा. अत्र बहु अत्र श्लोकान् पठन्तु. अपि च अहं प्रश्नपत्रमपि प्रेषितवती. तत्र प्रश्नपत्रं, तस्मिन् प्रश्नपत्रे पञ्चप्रश्नाः सन्ति, उत्तमाः प्रश्नाः, सर्वैः अवगन्तव्या. उत्तमम्. अधुना अत्र स्थगयामः, अग्रिमे सप्ताहे पुनर्मिलामः. सर्वेषां धन्यवादः.
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 नमस्कारः.